ॐ वागर्थाविवसं प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॐ ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 अस्मद्गुरुभ्यो नमः
धन्यवादः भगिनि
धन्यवादः भगिनि
धन्यवादः अस्तु अस्तु पुटसङ्ख्या अभ्यासपुस्तके पुटसङ्ख्या अष्टविंशति वा एकवारं पठितवन्तः इति सम्भाषणं वयम्
आं भगिनि
आं भगिनि वि फिनिश
वि डिड
3 4 sentences bagini
I think 6.1
we completed am bagini 5 sentences we completed
astu astu uttamam astu 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 ekvaram punah pathatu ha sudha bagini api shailaja bagini ha ekvaram punah sambhashanam pathatu उच्चैः पठतु
शैलजा भगिनि आरम्भं करोति वा
आं भगिनि हरिः ॐ सुप्रभातम्
नमस्ते श्रीमन् स्वागतम् आगच्छतु उपविशतु
धन्यवादः सर्वं कुशलं वा
आं कुशलं भवान् एतत् पुस्तकं स्वीकरोतु
कथमस्ति एतत् पुस्तकम्
समीचीनम् अस्ति भवान् अपि पठतु
अस्तु अनन्तरं पठामि
अहं गच्छामि
तिष्ठतु पानीयं स्वीकरोतु
क्षम्यतां मास्तु
किञ्चित् स्वीकरोतु
अस्तु धन्यवादः
शर्करा अधिका अस्ति किल
चिन्ता मास्तु अहम् आगच्छामि नमस्कारः
नमस्कारः
उत्तमम् उत्तमम् अस्तु हा कविता भगिनी स्वागतं नमस्कारः
नमस्कारः धन्यवादः
हा पुटसङ्ख्या 28 एकं सम्भाषणमस्ति तत्र पञ्च पङ्क्तिशः वयं कृतवन्तः इति मन्ये इत्युक्ते हरिः ॐ सुप्रभातं सं नमस्ते श्रीमन् स्वागतम् आगच्छतु उपविशतु धन्यवादः सर्वं कुशलं वा आं कुशलं भवान् एतत् पुस्तकं स्वीकरोतु अस्तु अधुना कथमस्ति एतत् पुस्तकम् इति आरम्भं कुर्मः वा इति सम्यक् अस्ति अस्तु शैलजा भगिनी करोतु एकमेकं पदं स्वीकृत्य शीघ्रं वदतु
हरिः ओम् सुप्रभातम्
तत्तु
हरिः
तत्तु अभवत् भगिनि कथम् अस्ति एतत् पुस्तकम् इति
आं भगिनि
करोतु
कथम् अस्ति एतत् पुस्तकम् कथं प्रश्नवाचक नपुंसकलिङ्ग प्रश्नवाचकपदम् अस्ति अस्ति अस् धातुपदम् वादिगणः अस्ति एतत् इति शब्दः
वादिगणे अस्ति वा
वादि
अस्ति
अस्ति ऐ रिमेम्बर् इट् एस् इट् इस् वादिगणः ऐ विल् चेक् इट् अगेन् भगिनि
एकवारं सुधा भगिनि अस्ति पदस्य विषये जानाति वा
अदादिगणः अस्ति
अदादिगणः अस्ति
ओके
कथं जानीमः
आं भगिनि
अष्टाध्यायी मध्ये अस् धातुतः भुवि इति अर्थः अस्ति भुवि अदादिः परस्मैपदी अस्ति सः सन्ति एकम् अन्य
क्षम्यताम्
चिन्ता मास्तु अस्तु करोतु
एतत् इति शब्दः नपुंसकलिङ्गशब्दः अस्ति एकवचनशब्दः अस्ति पुस्तकं नपुंसकलिङ्गशब्दः एकवचनशब्दः अस्ति एतत् पुस्तकम् इति शब्दे मध्ये विशेषणविशेषभावः भावम् अस्ति
एतत् पुस्तकम् उत्तमम् उत्तमम् अस्ति
धन्यवादः
एतत् पुस्तकं कथम् अस्ति कथम् इति पदस्य विषये वदतु
कथम् इति प्रश्नवाचकः नपुंसकलिङ्गपदं प्रश्नवाचकपदम् अस्ति कथं पुस्तकम् इस् नपुंसकलिङ्गपदं सो ऐ थाट् कथं शुड् बि डेफिनेट्लि
न
वन् मिनिट् भगिनि ऐ एम् चेकिङ्ग् इट्
कथम् इति अव्ययपदम् अस्ति न त्रिषु लिङ्गेषु समानेव कथम्
कथम् अव्ययपदम् अव्ययपदम् इत्युक्ते त्रिषु लिङ्गेषु समानेव
त्रिषु लिङ्गेषु त्रिषु वचनेषु समानेव
कथम् इत्युक्ते किम्
हौ
हौ इत्युक्ते किं प्रकारेण कथम् अस्ति एतत् पुस्तकं
हौ इस् दट् बुक्
उत्तमं कथम् अस्ति एतत् पुस्तकम् अग्रिमं पठतु भगिनि
यस् भगिनि समीचीनं समीचीनम् अस्ति भवान् अपि पठतु समीचीनं भगिनि हौ डु ऐ हाव् टु चेक् फोर् द वर्ड्स् लैक् डु ऐ हाव् टु टैप् इन् स्पोक् इन् संस्कृत् फोर्
दट्स् अ गुड् प्लेस् टु स्टार्ट् तत्र तु उत्तमं प्रथम सोपानं तु स्पोकन् संस्कृत् मध्ये एकवारम् अन्वेषणं करोतु तदनन्तरं धातु अस्ति चेत् क्रियापदम् अस्ति चेत् अष्टाध्यायी मध्ये पुनः एकवारं करोतु किन्तु स्पोकन् संस्कृत् प्रथमसोपानं तु तत्तु समीचीनमेव
समीचीन इति शब्दः भगिनि इट् इस् गिवन् एस् एड्जेक्टिव् एण्ड् इट् इस् द मीनिङ्ग् इस् गुड् बट् समीचीनं सो हौ डु ऐ अण्डर्स्टाण्ड् द वर्ड् समीचीनम् इफ् इट् इस् नाट् देर् इन् स्पोकन् संस्कृत्
समीचीनम् अस्ति समीचीनम् अहं मन्ये अपि एकं अपि समीचीनं प्रश्नः तु समीचीनमेव अहं मन्ये विशेषणपदम् अस्ति चेत् यदि किमपि विशेष नास्ति चेत् तु नपुंसकलिङ्गं रूपं साधु समीचीनं यदि किमपि विशेष अर्थः नास्ति चेत् इत्युक्ते सामान्यतया समीचीनं तु समीचीनमेव नपुंसकलिङ्गं रूपं समीचीनम् इति मन्ये भगिनी किमर्थं विशेषणपदम् अस्ति. विशेषणपदं सर्वदा त्रिषु लिङ्गेषु भवति.
सो अव्ययपदम् अस्ति वा भगिनि?
न न न न न त्रिषु लिङ्गेषु भिन्नभिन्नरूपं रूपं विशेषण किमपि विशेषणपदस्य यदि बालकः अस्ति तदनन्तरं कथं वदामः एकं.
So if we don't know the lingam, we always use napunsakalinga padam. So it is used as napsamichinam here, Bhagini.
Sundarah balakaha. Sundari balika.
Sundaram pushpam.
Pushpam. Uttama. Ityukte, kimapi visheshana padam asti chet, pumlingam ekam rupam, strilingam anyarupam, napunsakalingam anyarupam. इति रूपं किं तत्तु शब्दकोशे मध्ये अन्वेषणं कुर्मः. इत्युक्ते कथं जानीमः स्त्रीलिङ्गं रूपं सुन्दरा वा सुन्दरी वा साधु किं
शब्दकोशः
संस्कृत तत्तु नास्ति भगिनि. तत् अहं तु न.
Is there online website online or something like that, Shabdakosha?
Look, there is one PDF is there of APTE, Sanskrit Hindi Kosha. There is a PDF version. But I just got my book today actually. I have one in my home in Lawrence and now I have one here also. It is completely worth buying.
What is that, Bhagini? The PDF one you are talking?
PDF you'll have to search, Bhagini. One I find, I'll send it to you. PDF you cannot Bhagini. Search. You cannot search that PDF. You have to just flip through the pages. So it takes a little bit of getting used to. But PDF to asti eva. Agrimam Bharate भवती अधुना आगच्छति आगत्य अग्रिमं किमपि समये तदनन्तरम् एकम् आप्ते पुस्तकम् आप्ते महोदयस्य कृते महोदयस्य रचितं शब्दकोश क्रीणातु भगिनि.
आं भगिनि, that will happen only if someone is coming from yeah
next time or actually I bought mine in the US only. It's possible but sometimes I don't know, it's hard to find. Astu so samichi asti ha
asti asti asdhatu and adadi ganaha asti. भवान् इति शब्दः पुल्लिङ्गशब्दः एकवचनशब्दः अस्ति.
प्रातिपदिकं किं
भवान् प्रातिपदिकं
सुधा भगिनी
भवत्
तकारान्त भवत् इति भवत् शब्दस्य भवान् अपि पठतु. अपि पदस्य विषये वदतु.
अपि इति शब्दः अपि अव्ययपदम् अस्ति वा भगिनि?
अव्ययपदमेव. अपि इत्युक्ते किम्?
अपि इस् और्
आल्सो
आल्सो
आल्सो इन् अडिशन् टु अपि. अपि इत्युक्ते आल्सो अपि पठतु. पठतु विषये वदतु.
पठतु इति शब्दः लोट् लकार आज्ञाया प्रार्थना लकार शब्दः अस्ति. एकवचनशब्दः अस्ति भगिनि.
पुरुषः
प्रथमपुरुषः शब्दः.
प्रथमपुरुषः एकवचन उत्तम एकवचनशब्दः. सुधा भगिनी अग्रिमं करोतु.
आं भगिनि, अस्तु अनन्तरं पठामि.
अस्तु अनन्तरं पठामि.
पठामि इति उत्तमपुरुष एकवचन लट् लकाररूपम् अस्ति. पानीयं, पानीयम् इति पानीयम् इति नपुंसकलिङ्गपदमस्ति.
अस्तु अनन्तरं पठामि. अनन्तरं
ओ नो पानीयम्
अनन्तरम्
अनन्तरम् अनन्तरं अनन्तरम् इति नपुंसकलिङ्गपदमस्ति. अनन्तरम् इति नपुंसकलिङ्गपदमस्ति. नपुंसकलिङ्गपदं द्वितीयाविभक्ति एकवचनपदम्.
अनन्तरं पठामि. कर्मपदं वा?
न न कर्मपदं नास्ति. कदा पठामि अनन्तरं पठामि.
कदा पठामि अनन्तरं पठामि. अनन्तरम् अव्ययपदम् अपि भगिनि.
अनन्तरं
अनन्तर अकारान्त नपुंसकलिङ्गं किन्तु अनन्तरम् अव्ययपदं
अव्ययपदं
पश्चात् किञ्चित् समये पश्चात् अनन्तरं पठामि. अहं गच्छामि. अहं पदस्य रूपाणि वदतु एकवारं. मनसि सन्ति सर्वे? एकवारं वदतु.
अहम् आवां वयं सर्वाणि विभक्तिरूपाणि.
पापाजी साहाय्यं करोतु. माम्
माम् माम् मा आवां नौ अस्मान् नः
नः
मयाम् आवाभ्याम् अस्माभिः
मया
मया आवाभ्याम् अस्माभिः
अस्माभिः. तदनन्तरं
मह्यं मे आवाभ्यां नौ अस्मभ्यहं नः अस्मभ्यं नः मत् आवाभ्याम् अस्मत्
अस्मत्
मम मे आवयोः नौ अस्माकं नः
नः
मयि आवयोः अस्मासु
अस्मासु. उत्तमम्. अहं गच्छामि. गच्छामि धातुरूपं किं?
गम् धातु इति.
गम् गणसङ्ख्या किम्?
भुवादिगणः अस्ति.
भुवादिगण. उत्तमम् उत्तमम्. एकवारम् अन्य एकमान् अन्य पङ्क्ति करोतु. तिष्ठतु
तिष्ठतु. अहं गच्छामि इति तिष्ठतु. पानीयं स्वीकरोतु. स्वीकरोतु इति लोट्लकाररूपं स्वीकरोतु.
पानीयं
पानीयम् इति नपुंसकलिङ्गपदमस्ति. द्वितीयाविभक्ति एकवचन कर्मपदमस्ति.
अत्र तु कर्मपदमस्ति. पानीय अकारान्त नपुंसकलिङ्गं पदम्. अधुना तु कर्मपदम्.
तिष्ठतु इति लोट्लकाररूपं प्रथमपुरुष एकवचनरूपमस्ति.
धातु पापा जी धातु
फिश धातु
था
था सॉरी
था धातु आया अस्तु पानीयं स्वीकरोतु उत्तमं धन्यवाद भगिनी कविता भगिनी
नमस्कारः
भगिनी न न चिन्ता मास्तु भगिनी स्वागतं कविता भगिनी
अहं भगिनी
अग्रिमं करोतु
क्षम्यतां मास्तु प्लीज गिव मी सम टाइम मैं थोड़ा सा लैगिंग हूँ तो क्षम्यतां Can I take 2 minutes and then come back? Let somebody continue because I'm eating everybody's time.
अस्तु अस्तु चिन्ता मास्तु भगिनि शिवरूप भगिनि
आं भगिनि क्षम्यतां मास्तु मास्तु इति इत्युक्ते नो प्राब्लम्
इत्युक्ते नो प्राब्लम् किन्तु अर्थः तु नास्ति इत्युक्ते
नास्ति इत्युक्ते नहि है
नहि है हा मास्तु मा अस्तु पदद्वयं सन्ति स्तः तत्र सन्धि भूत्वा मास्तु अभवत् मा अस्तु मा अस्तु मा इत्युक्ते किम्
मा इत्युक्ते नहि नहि है
नो किन्तु कीदृश नो इति मम प्रश्न मा इत्युक्ते मा इत्युक्ते कथं वदामि डोण्ट्
हा डोण्ट्
नो तु न किन्तु डोण्ट्
मा मतलब मा होती है और उसका संस्कृत में मतलब होता है डोण्ट्
न न न बहु किमपि मा विद्विषावहै उत्तमं भगिनि तदेव मा इत्युक्ते विद्विषावहै मा गच्छतु तत्र मा करोतु मास्तु मास्तु इत्युक्ते अस्तु अस्तु इत्युक्ते लोट् लकार टु बी इत्युक्ते भुवि आज्ञा किन्तु मा डोण्ट् डोण्ट् बी लैक् दट् क्षम्यता मास्तु किमर्थम् एकं
क्षम्यताम् इति
क्षम्यताम् अहं वदामि क्षम्यताम् एकं किं जटिलपदमस्ति बहु किमपि अभवत् तदनन्तरं क्षम्यताम् आयाति एकं जटिलपदमस्ति भाषापाक इति एकं बहु समीचीनं पुस्तकमस्ति तत् तस्मिन् एकं लघु अध्याय अस्ति इति पदस्य विषये क्षम्यताम् इति कथम् अभवत् लोट् लोट् तु अस्ति किन्तु अस्माकं प्रयोगे कथम् आयाति इति एकं जटिलविषयः अस्ति अधुना अस्तु क्षम्यताम् तदनन्तरम् अत्र स्पोकन् संस्कृत मध्ये किं दत्तं क्षम्यतां कोऽपि वदतु
क्षम्यतां न आयाति भगिनि
फ्रेज् इत्युक्ते फ्रेज् इति एकं पदमेव नास्ति किञ्चित् जटिलविषयः अस्ति अधुना तु त्यजतु क्षम्यतां मा अस्तु अग्रिमं
किञ्चित् स्वीकरोतु
किञ्चित् किञ्चित् विषये किमपि जानाति वा
किञ्चित् इति अव्ययपदमस्ति वा भगिनि
चित् वा चन चन वा चित् वा चन वा अन्ते किम् अस्ति अत्र चित् अस्ति
किञ्चित्
चित् अस्ति अपि च चन अस्ति कश्चन कः चन इत्युक्ते कश्चन सन्धि भूत्वा शकार आयाति किञ्चन किञ्चित् इत्युक्ते किं चित् चित् वा चन वा तद् द्वे अपि समानेव चित् वा चन् वा अन्ते प्रश्नवाचकः भवति किञ्चित् शब्दकल्पद्रुमा मध्ये अहम् एकवारं पश्यामि किञ्चित् 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 एकवारं किम् अथवा चित् अस्ति किञ्चित् सन्धि भूत्वा एकं निमिष किञ्चित् अधुना शब्दकल्पद्रुमा एकम् अन्य वेब्सैट् अस्ति सौकर्यं तु नास्ति बहु जटिला अस्ति तत्र अहमपि किञ्चित् किञ्चित् एव अवगतं तत्र किं च चित्वं चित्वं किं चित्वम् अस्तु किमः चिच्नौ इति एकं किञ्चित् व्याकरणे एव एकं पदमस्ति अस्तु भगिनी अस्तु अधुना तु त्यजतु अत्र किं दत्तं संस्कृत मध्ये स्पोकन् मध्ये किं दत्तं किञ्चित् अव्ययपदं वा किं
अव्ययपदं भगिनि
अव्यय एव अस्तु किञ्चित् एड्वर्ब् अपि अस्ति अव्यय अपि अस्ति बहु किमपि अभवत् किञ्चित् इति प्रयोगे एव सर्वम् आगतम् अस्तु किञ्चित्
स्वीकरोतु स्वीकरोतु इति अहं अष्टाध्यायी मध्ये प्रयत्नं कर
न तत्र तु स्वी उपसर्ग तु नास्ति यद्यपि उपसर्ग इव इव अस्ति उपसर्ग तु नास्ति स्वी किन्तु उपसर्ग इव अस्ति इव इत्युक्ते लैक् यदि किमपि उपसर्ग अस्ति तु अष्टाध्यायी मध्ये किञ्चित् क्लिष्टा जाता
एड्वर्ब् इट् इस् गिवन् अस् एड्वर्ब् भगिनि किञ्चित्
एड्वर्ब् अपि च अव्ययपदम् एड्वर्ब् इत्युक्ते संस्कृतभाषायां वदतु भगिनि
It's just describing the verb. क्रियापदं को डिस्क्रैब् करने वाला
क्रियाविशेषण एड्वर्ब्
क्रियाविशेषण
किञ्चित् अस्तु किञ्चित् स्वीकरोतु स्वीकरोतु तु एकं लोट् पदम् अस्ति एव तदेव समीचीनम् अधुना अग्रिमं पठतु
अस्तु धन्यवादः
धन्यवाद कीदृशपदम्
धन्यवादः इति पुंलिङ्गपदमस्ति भगिनि
दत्तं वा पुंलिङ्गम् अकारान्त रामवत्
अकारान्त रामवत् धन्यवादः पुंलिङ्गपदमस्ति.
धन्यवादः. वाद इत्युक्ते किं? कथमयाति वाद वदति. धन्य इत्युक्ते किं? धन्योऽस्मि. यदि अहं धन्य अनुभवामि अपि च तदेव अहं वदामि चेत् धन्यवादः. धन्यवादः इति आयाति. अस्तु, उत्तमम् उत्तमम्. अन्य किमपि अस्ति अत्र? पापाजि अग्रिमं. शर्करा
अधिका अस्ति किल?
किल शर्करा कीदृशपदम्? दीर्घ आकारान्त स्त्रीलिङ्गं पदम्. उत्तमम्. अधुना तु प्रथमविभक्ति एकवचनरूपम्. उत्तमम्. अधिका इति विशेषण विशेषण विशेष्यपदं किं? शर्करा विशेष्य अपि च अधिका विशेषणं. समान एकविभक्ति एकरूपमेव. उत्तमम् इत्युक्ते विशेषणविशेष्यभावः अस्ति तत्र मध्ये. उत्तमम् अस्ति. किल किल इति पदस्य विषये वदतु. किल हा उत्तमं वा समीचीनं वा. किल इज़न्ट् इट् इति किल. अन्य कोऽपि वदतु किल विषये.
हव् यु अण्डर्स्टुड् ओर् समथिङ्ग् लैक् दट् फॉर मी?
नो, नाट् अण्डर्स्टुड्. किल इत्युक्ते
इज़ इट् ओके? इज़ इट् एनफ?
Not enough. Kila ityukte kim?
They are yadi confident about the one and they are asking that is it right like that.
Ityukte
so they wanted the answer whatever they are asking for.
Ityukte when you know you have said something and you are confident that it is right but you are looking for an agreement. The sky is blue, Kila.
No.
भवती सम्यक् एव किल. यु आर् ओके राइट? लैक् दट् लैक् दट् किल
किल किल
किल अकारान्त. इज़न्ट् इट् सो? इज़न्ट् इट् सो इति. अङ्गीकार यदि अहम् अङ्गीकारम् इच्छामि तदनन्तरं किल इति. उत्तमं. कः वदति इति न जाने, विस्मरामि. शिवरूप वा?
आं भगिनि, किल.
किल. अस्तु अस्तु.
अधिका शर्करा वि किल.
किल किल. अस्तु. पापा जोक् डिड् यु हियर्? किम् अत्र अस्ति? हा पापाजी अग्रिमं. चिन्ता मास्तु.
चिन्ता मास्तु. पिबति. अहम् आगच्छामि. नमस्कारः.
हा चिन्ता इति पदस्य विषये.
चिन्ता
लिङ्गं किम्? मास्तु
मास्तु.
कीदृशपदं? लोट् लोट् लकार आज्ञा. मास्तु. अति पिबति. पिबति
इत्युक्ते
क्रिया अस्ति, एकं क्रिया अस्ति लट् लकार, हा लट् लकार रूपं, लट् इत्युक्ते वर्तमानकाल, हा उत्तमं, प्रथम पुरुष एकवचन पिबति, उत्तमं. तदनन्तरम् अहम् आगच्छामि, अहं प्रातिपदिकं किं कोऽपि जानाति वा? अस्मद् अस्मद् प्रातिपदिकं, हा सर्वनाम अस्मद् अस्मद् अहम् आगच्छामि. आगच्छामि इति पदस्य विषये आगच्छामि किमर्थम् आगच्छामि? तत्रैव हिम् सः भवति, किमर्थम् आगच्छामि? फिर से तो नहीं, किन्तु अस्माकं संस्कृत, हाँ मैं आता हूँ. I'll come back again. Is it like
I'm coming.
It I'll say, come back. So in Telugu, one word is there, like Velustano. Okay. Because we don't say, often we don't say like I'm going or something like that.
Because going means ultimate going. So as you leave the door, you say, I'm coming.
Come back.
आगच्छामि, नमस्कारः,
नमस्कारः,
उत्तमम्, अस्तु. हा कविता भगिनी अस्ति वा अधुना सिद्धा वा
भगिनी?
हा हा पठतु भगिनी, रक्तकोष्टके किमपि दत्तं पठतु एकवारं.
हरिः ओम्, सुप्रभातम्, स्वागतं, क्षम्यतां, नमस्कारः, चिन्ता मास्तु.
इति सर्वे पदानि सन्ति, सर्वाणि पदानि वयं किञ्चित् किञ्चित् पठितवन्तः. अस्तु उत्तमम्. अग्रिमं पठतु कविता भगिनी.
विद्यालयः, सो फर्स्ट आई विल रीड व्हाट वी आर सपोज्ड टू डू, देन आई रीड.
चित्रं,
विद्यालयः, ग्रंथालयः, देवालयः, कार्यालयः, आपणः, रेलस्थानकं, चित्रमन्दिरं, उद्यानं, प्रदर्शिनी. चित्रं दृष्ट्वा, उदाहरणं दृष्ट्वा, तादृशानि वाक्यानि लिखतु. लिखतु इति प्रथमपुरुष एकवचनरूपं धातु लिख्, एण्ड् ऐ विल् टेल् यू द गण. It is the sixth gana, illikha, and the it is parasmai padi, sakarmaka pada.
Tudadi gana, likh, apicha, lot, aparatu, lotus.
Haan, tudadihi gana, lot lakaraha, parasmai pada, prathama purusha ekvachana rupam.
Uttamam, likh. लिखतु. हा तदनन्तरं
वाक्यानि, जस्ट् मिनट्.
लिख् धातु कीदृशधातु अस्ति तत्र, सकर्मक वा अकर्मक वा?
सकर्मकधातु, इट् एक्सेप्ट्स् अ क्रियापदम्.
इत्युक्ते अधुना वाक्यानि,
हा तदेव वाक्य इति नपुंसकपदम् अस्ति. वाक्यानि इति पदं नपुंसकपदं प्रथम पुरुष बहुवचन रूपम्
एकवारं सर्वाणि रूपाणि वदतु प्रथमविभक्तिरूपाणि
वाक्य
वाक्यं
वाक्ये सोरि वाक्यं वाक्ये वाक्यानि
द्वितीयविभक्ति
वाक्यं वाक्ये वाक्यानि सेम् चित्र को देख कर उदाहरण देख कर तादृशानि वाक्यानि लिखतु तो एग्जाम्पल्स को देख कर उसके हिसाब से लिखिए तो ये एक्शन एक्सेप्ट कर रहा है तो ये कर्म पदम हुआ तो ये द्वितीय विभक्ति हुई उसका बहुवचन रूपम
वाक्यानि लिखतु कीदृश वाक्यानि
तादृशानि वाक्यानि
तादृशानि वाक्यानि समान एव विभक्तिरूपं तादृशानि वाक्यानि लिखतु दृष्ट्वा इति पदस्य विषये वदतु
ये कुछ क्लासेस पहले डिस्कस हुआ था एक मिनट
साहाय्यं करोतु कोऽपि
दृष्ट्वा इति स्वान्तपदम् अस्ति
अव्ययपदम् अस्ति
अव्ययपदम् अस्ति उत्तमम् इत्युक्ते
इति कर्मपदं स्वीकरोति उदाहरणं दृष्ट्वा इति उदाहरणं कर्मपदम् अस्ति
उत्तमं सर्वदा स्वान्तपदं कर्मपदं स्वीकरोति अत्र तु उदाहरणं दृष्ट्वा उदाहरणं देख कर उत्तमं तदनन्तरं पुनः दृष्ट्वा अस्ति तत्र चित्रं दृष्ट्वा उदाहरणं दृष्ट्वा तादृशानि वाक्यानि लिखतु उत्तमं प्रथमं पठतु कविता भगिनी
मम मित्रं विद्यालयं गच्छति
मम मित्रं विद्यालयं गच्छति एकं प्रश्न पृच्छतु भगिनी तस्य वाक्यस्य
मम मित्रं कुत्र गच्छति
कः मित्रं कुत्र गच्छति वदतु
सोरि ऐ डिडन्ट् अण्डर्स्टाण्ड् सो कुत्र इस् इन्करेक्ट् दट् वेर् डस् मै फ्रेण्ड् गो ऐ एम् आस्किङ्ग्
मम मित्रं कुत्र गच्छति मम मित्रं विद्यालयं गच्छति अन्यप्रश्न
कः ऐ थिङ्क् देट् उसके आन्सर् मे आपको मित्रं चाहिए तो कौन् विद्यालयं जा रहा है तो कः विद्यालयं गच्छति
कः विद्यालयं गच्छति वदतु
मम मित्रं विद्यालयं गच्छति
मित्रं विद्यालयं गच्छति कस्य मित्रम्
ओके मम मित्रं सो त्री क्वेश्चन्
उत्तमं धन्यवादः भगिनि
धन्यवादः
दीप्षिका भगिनी अग्रिमम्
भगिनी सोरि भगिनी मम मित्रं विद्यालयं मित्रं विद्यालयं गच्छति सो द्वितीयविभक्ति इस् लैक् कः विद्यालये को जा रहे हैं सो विद्यालयम् इस् द्वितीयविभक्ति बट् मित्रं मित्रः इस् मित्रम् इस् वाट् इस् द प्रातिपदिकं मित्रम् इस् फर् मित्रं भगिनि
उत्तमं प्रश्नं मित्रं कीदृशपदं लिङ्गं किं कोऽपि जानाति वा न
मित्र
किं तत्र
नपुंसकलिङ्गं
पदम् अस्ति नपुंसकलिङ्गं पदम् अस्ति अत्र मित्रं कर्तृपदं कर्तृपदम् इत्युक्ते किं प्रथमाविभक्तिरूपमेव
I thought like mitram is pullinga shabdah so I thought why mitram is there right bagini
na spoken sanskrit madhye pashyatu bagini
aam bagini
ha ha napumsakalingam padam mitram mitre mitrani iti mitram mitre mitrani uttamam
so visheshana vishesha bhavam aam bagini aam dhanyavadah
visheshana vishesha katham bagini tatra
सो विद्या मित्रं विद्यालयं
न न मित्रं तु प्रथमा विभक्ति कर्तृपदं विद्यालयं तु कर्मपदम् मित्रं
प्रथमविभक्ति
इत्युक्ते कर्मपदम् इत्युक्ते डैरेक्ट् आब्जेक्ट् मित्रं विद्यालयं गच्छति मम मित्रम् अपि विशेषणविशेषभावः नास्ति कस्य मित्रं मम मित्रम् इति षष्टिविभक्त्यां मम इति षष्टिविभक्तिरूपम् अस्मत् शब्दस्य उत्तमं
मम मित्रं ग्रन्थालयं गच्छति
मम मित्रं ग्रन्थालयम् अन्य कोऽपि गच्छति वा
मम मित्रं
मम मित्रं तु गच्छति अन्य कोऽपि अस्ति वा तत्र
वाक्ये मम अम्बा ग्रन्थालयं गच्छति
मम अम्बा ग्रन्थालयं गच्छति
नेवर्
अस्तु मम पिता ग्रन्थालयं सर्वदा गच्छति
दीपिका भगिनी केन् वेरि सेफ्लि से मम भगिनी
मम भगिनी ग्रन्थालय अस्तु अपि च मम पिता ग्रन्थालयं सर्वदा गच्छति मम अम्बा ग्रन्थालय
नास्ति
न न न नास्ति न
कदापि
न गच्छति नेवर् कदापि न गच्छति कदा अपि न गच्छति कदा अपि न गच्छति न कदा कदा इत्युक्ते किम्
कदा इस् रिलेट्स् टु द टैम्
सूर्यः कदा सूर्यः कदा उदेति कदापि कदापि न गच्छति कदापि अपि कदा अपि कभी भी नहीं
अपि मतलब भी है ना
उत्तमं पापाजी देवालयः इति पदस्य वाक्यं रचयतु देवालयः इति पदं योजयित्वा एक लघुवाक्यं लघुवाक्यं विद्यालयः देवालयः इति दत्तं देवालयः तृतीयचित्रम् अहं देवालयं न गच्छामि अहं देवालयं न गच्छामि उत्तमं शैलजा भगिनी
आं भगिनि कार्यालयः कर्मकारः कार्यालयात् आगच्छति
कर्मकारः कार्यालयात् आगच्छति कार्यालयात् इत्युक्ते किं
पञ्चमी विभक्ति एकवचनशब्दः
उत्तमं पञ्चमी उत्तमं भगिनी धन्यवादः सुधा भगिनी
धन्यवादः भगिनी
आं भगिनि आपणः रामः आपणः गच्छति रामः आपणं गच्छति
रामः आपणं गच्छति उत्तमं धन्यवादः भगिनी शिवरूपा भगिनी
मम सखी रेलस्थानकं गच्छति
मम सखी रेलस्थानकं गच्छति उत्तमं धन्यवादः कविता भगिनी
अहं
चित्रमन्दिरं न गच्छति अहं चित्रमन्दिरं न गच्छामि
न गच्छामि हा पापाजी एकं हा एकं प्रश्न पृच्छति हा पुनः वदतु हलन्तविषये रेलस्थानकं मकारान्त अस्ति चेत् तत्र अस्ति किमर्थं हलन्त अस्ति इति पृच्छति वा किमर्थं हलन्त अस्ति ते रेलस्थानकं रेलस्थानकम तु नास्ति रेलस्थानकं मकार अस्ति अम् अस्ति म ओ रेल् स्थानकं तत्तु न जानामि रेल् रेल रेल कीदृशपदं पापाजी
आम् आदमी बोलते
स्थानकम् एकवारं स्पोकन् संस्कृत मध्ये पश्यतु रेलस्थानकं किं दत्तम्
भगिनि स्थान स्थान दे हैव गिवन स्टेशन एज नपुंसकलिंगम भगिनि
भगिनि रेल स्थानक इज कमिंग ल जुड़ा हुआ है स्थ के साथ तो ल आधा स्थ के साथ है रेल स्थानक
भगिनि स्पोकन संस्कृत मध्ये
जी जी
किंतु मम तो नास्ति स्पोकन संस्कृत मध्ये रेल
मैंने लेक्सी लोगोस में रेल डाला तो आप जब रेल कॉपी पेस्ट करते हैं स्पोकन संस्कृत में तो दिस कम्स एज वन ऑफ द ऑप्शंस बिकॉज रेल इंडिपेंडेंटली नहीं आता शब्द
अस्तु विवे अस्तु अस्तु विकल्पेन द्वे रूपम साधु पापा
अच्छा आप इंग्लिश में टाइप करिए आर ई एल एस टी एच कैपिटल ए एन ए के ए फिर देखिए
आ गया रेलस्थानकं रेल स्थानकम् इत्युक्ते अत्र तु रेल अपि समीचीनं रेल् अपि समीचीनं द्वे रूपद्वयं समीचीनं रेलस्थानक इत्युक्ते नपुंसकलिङ्गं पदम् अकारान्त नपुंसकलिङ्गं पदं रेलस्थानक इति रेलस्थानकम् इति तु प्रथमविभक्तिरूपम् अस्तु उत्तमम् अधुना हा शिवरूपा भगिनी उद्यानं न शिवरूपा भगिनी उक्तवती वा अस्तु दीप्षिका भगिनी उद्यानम्
उद्यानम्
सप्तमी योजयित्वा एकं वाक्यं रचयतु
उद्याने मम प्रातःकाल उद्याने उद्याने
मम वा कर्तृपदं किं मम कीदृशरूपं पुनः वदतु
अहं प्रातःकाले उद्याने व्यायाम होता है क्या संस्कृत में? व्यायाम करोमि,
व्यायाम अंत अंत तो विभक्ति रूपम किम? योगासनम करोमि उद्याने योगासनम करोमि उत्तमम व्यायाम इति वा न जानामि व्यायामिक इति दत्तं व्यायामिक रिलेटिंग टू एक्सरसाइज एथलेटिक विशेषण संज्ञापदं तु संज्ञा तु नास्ति किन्तु विशेषण अस्ति इत्युक्ते योगासनं करोमि तत्तु समीचीनमेव अस्तु शैलजा भगिनी अग्रिमम्
आं भगिनि
अन्तिमं पठतु भगिनि एकं लघुवाक्यं रचयतु
वयं प्रदर्शिनी गच्छावः प्रदर्शिनीं गच्छावः
वयं वचन किं
वयं बहुवचनशब्दः उत्तमपुरुष बहुवचनशब्दः अस्ति गच्छावः
वयं तु संज्ञापदम् अस्ति भगिनि वयं तु प्रथमविभक्ति बहुवचनरूपम् अस्ति अस्मत् प्रातिपदिकस्य न
आं भगिनि आम् आम्
तदनन्तरं
प्रदर्शिनीम् इस् वयं प्रदर्शिनीं गच्छावः इस् उत्तमपुरुष बहुवचनशब्दः अस्ति
बहुवचन नास्ति भगिनि
गच्छावः इस्
गच्छामः इति बहुवचनरूपं गच्छावः तु द्विवचनरूपम्
गच्छामः
वयं प्रदर्शिनीं गच्छामः समीचीनं
वयं प्रदर्शिनीं गच्छामः आं भगिनि प्रदर्शिनी द्वितीया विभक्ति एकवचनशब्दः कर्मपदं
समीचीनं समीचीनं धन्यवादः भगिनि अस्तु सुधा भगिनी अग्रिमम्
आं भगिनि अग्रिमं पुटसङ्ख्या वा
हा त्रिंशत्
अत्र एकं सम्भाषणम् अस्ति सम्भाषणं पठतु आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि रिक्ते स्थले लिखतु
बहु किमपि दत्तं तत्र अत्र एकं सम्भाषणम् अस्ति तत्तु सरलमेव
अत्र इत्युक्ते किं देर् इस् कान्वर्सेशन्
एकं सम्भाषणं तु विशेषण विशेष्यभाव
अस्ति इति अकर्मक्रियापदम्
अत्र तु
अव्ययपदम्
इत्युक्ते अधोभागे एकं सम्भाषणम् अस्ति सम्भाषणं पठतु तत्तु सौकर्यम् अवगतम् अस्तु तदनन्तरम् अन्तिमवाक्यम्
आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि रिक्ते स्थले लिखतु इति लिक् धातुतः आयाति क्रियापदं लोट्लकारः एक प्रथमपुरुष एकवचनरूपम् अस्ति स्थले इति नपुंसकलिङ्ग सप्तमी विभक्ति एकवचनपदमस्ति रिक्ते स्थले इति द्वयोः मध्ये विशेषणविशेष्यभावमस्ति उचितरूपाणि शब्दानाम् उचितरूपाणि लिखतु. उचितरूपाणि इति नपुंसकलिङ्गपदं रूपाणि किं लिखतु? आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि लिखतु. द्वितीयविभक्ति बहुवचनरूपमस्ति, कर्मपदमस्ति.
उत्तमं.
शब्दानां
शब्द कीदृशपदम्?
शब्द इति पुल्लिङ्गपदमस्ति.
कीदृशपुल्लिङ्गपदं?
शब्दानाम् इति षष्टी बहुवचनमस्ति.
षष्टि बहु रामवत् अकारान्त पुंलिङ्गपदं शब्द शब्दः शब्दौ शब्दाः.
विद्यमानानां शब्दानाम् इति द्वयोः मध्ये विशेषणविशेष्यमस्ति.
उत्तमम् उत्तमम्. इत्युक्ते किं विद्यमानानां शब्दानाम् इत्युक्ते किम्?
विद्यमानानां शब्दानां
पापजि विद्यमानानां शब्दानाम् इत्युक्ते किं?
गिविन् बिलो द वर्ड्स्.
विद्यमानाम् इत्युक्ते वहा है अस्ति ते सन्ति तत्र सन्ति ते
दे आर् प्रेसेण्ट्
प्रेसेण्ट् विद्यमानानां शब्दानां षष्टि बहुवचनरूपम्. उत्तमम्. आवरणे
आवरणे इति नपुंसकलिङ्गपदं सप्तमी विभक्ति एकवचनपदमस्ति वितन् पेरान्थसिस्.
सप्तमी एकवचन इत्युक्ते आवरणे विद्यमानानां शब्दानाम् उचितरूपाणि इत्युक्ते किमपि परिवर्तनं करोतु तदनन्तरं लिखतु रिक्ते स्थले लिखतु इति. उत्तमं. प्रथमं करोतु भगिनि.
पिता पुत्रः पठतु.
न श्रूयते भगिनि.
भगिनि
न
श्रूयते वा?
हा अधुना श्रूयते.
क्षम्यतां पिता पुत्रः पाठः पुत्रः पठतु पुत्रः पाठं पठतु.
पाठं पठतु पुत्र पाठं पठतु. पुत्र कीदृशपदम्?
पुत्र इति पुल्लिङ्गपदमस्ति.
न श्रूयते भगिनि.
पुत्र इति पुल्लिङ्गपदं पुल्लिङ्गपदमस्ति. श्रूयते
पुंलिङ्गपदं कीदृशपदम्? शृणोमि किन्तु किञ्चित् क्लिष्ट जाता. किञ्चित् क्लिष्ट जाता. अस्तु पुत्र इति सम्बोधन
सम्बोधन
प्रथमसम्बोधन इत्युक्ते अपि च प्रातिपदिकं किं पुत्र इति पदस्य जानाति वा कोऽपि जानाति वा?
उच्चवन् भगिनि.
पुत्र पुत्रः पुत्रौ पुत्राः कीदृशपदम्?
पुल्लिङ्गपदं
पुल्लिङ्गशब्द
अकारान्त पुंलिङ्गपदं पुत्र पुत्र पुत्रौ पुत्राः पिता इति कीदृशपदं भगिनि
पिता इति पितृ
पितृ प्रातिपदिकं ऋकारान्त ऋकारान्त पुंलिङ्गं पदं पिता इति तु प्रथमविभक्ति एकवचनरूपम् पिता सर्वाणि रूपाणि एकवारं वदतु भगिनि
मनसि
मनसि नास्ति एकवारं पश्यतु
पुस्तकं दृष्ट्वा
दृष्ट्वा पठतु दृष्ट्वा पठतु
पिता
सङ्ख्या किं
पुटसङ्ख्या नवदशः
नवदशः अस्तु नवदशमं
नवदशमं पिता पित्रौ पितरः ऋकारान्त पुंलिङ्गः पितृशब्दः प्रथम विभक्ति पिता पित्रौ पित्रः पितरः हे पितः हे पित्रौ हे पितरः पितरं पितरौ पितॄन्
पितॄन् द्वितीयविभक्ति पितॄन् तदनन्तरं
पित्रा पितृभ्यां पितृभिः पित्रे पितृभ्यां पितृभ्यः पितृः पितृभ्यां पितृभ्यः
विशेष पञ्चमी पुनः वदतु एकवचन
पञ्चमी पितुः पितुः
पितुः पितुः
पितुः पितृभ्यां पितृभ्यः पितुः पित्रोः पितृभ्यां पितॄणां 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 पितरि पित्रोः पितृषु
पितृषु उत्तमम् उत्तमं धन्यवादः भगिनि
धन्यवादः
ऋकारान्तपदमस्ति तत्र अस्तु कविता भगिनी भ्रातृ भ्रातृ अपि ऋकारान्तपदमस्ति पुंलिङ्गं पदं सर्वाणि रूपाणि एकवारं वदतु
आं भगिनि भ्रातृ सो पितृ पिता भ्राता
भ्राता
भ्रातरौ भ्रातरः हे भ्रातः हे भ्रातरौ हे भ्रातरः भ्रातरं भ्रातरौ भ्रातॄन् भ्रात्रा भ्रातृभ्यां भ्रातृभिः भ्रातृभ्यां भ्रातृभिः भ्रात्रे भ्रातृभ्यां भ्रातृभ्यः भ्रातुः भ्रातृभ्यां भ्रातृभ्यः भ्रातुः भ्रात्रोः भ्रातॄणां भ्रातरि भ्रात्रोः भ्रातृषु
उत्तमम् उत्तमं
धन्यवादः
अग्रिमं करोतु कविता भगिनी
पुत्रः अहं पाठः द सेण्टेन्सेस् पठितुं न शक्नोमि So, I didn't understand. Son, I, so पठितुं न शक्नोमि मतलब रीड नहीं कर पा रहे हैं सो
पुत्रः वदति पिता किं वदति पुत्र पाठं पठतु पुत्रः किं वदति
अहम् अच्छा ओके ओके सो द सन् इस् आन्सरिङ्ग् ओके ओके गोट् इट् नौ
किं वदति पुत्रः?
के वो पढ़ नहीं पा रहा है।
इत्युक्ते अहम्
अहम् पाठः पठितुं न शक्नोमि।
पाठः तु आवरणे दत्तं, परिवर्तनं करोतु, समीकरोतु।
तो पाठ को नहीं पढ़ पा रहे हैं।
इत्युक्ते विभक्तिरूपं किं तत्र? को अस्ति चेत् पाठ को इत्युक्ते किम्?
पाठ को
पाठम्
पाठम् कर्मपदं तत्र तु।
यस् पाठ को राइट इज एक्सेप्टिंग। सो पुत्र कह रहे हैं अहम् पाठम् पठितुं न शक्नोमि।
न शक्नोमि अहं पाठं न शक् पठितुं न शक् पठितुम् इति विषये किमपि कोऽपि जानाति वा? कीदृशपदं तत्र पठितुम्? अन्य कोऽपि वदतु, साहाय्यं करोतु। पठितुं कीदृशपदम्
इति पदं गन्तुं
किं प्रत्यय किं?
तुमुन् प्रत्यय।
तुमुन् प्रत्यय उत्तमं। तुमुन् प्रत्यय अन्ते किम् आयाति? तुम् आयाति।
तुम्
तुम् कथम् आयाति? तुमुन् एकं प्रत्ययस्य नाम अस्ति। तुमुन् पठितुं द्रष्टुं लेखितुं पठितुम् इति इत्युक्ते किम्? पठितुं न शक्नोमि,
पढ़ने के लिए नहीं हो रहा है।
नहीं हो रहा है, पढ़ने के लिए नहीं हो रहा है। उत्तमम्। पठितुं न शक्नोमि उत्तमम्। शिवरूपा भगिनी अग्रिमं पठतु।
आम् भगिनी। पिता किमर्थम्? पुत्रः
कीदृशपदं? किमर्थं तत्र किम् अभवत्?
किमर्थं प्रश्नवाचकपदम् अस्ति। रीजन् वै वै इट् इस् नाट् पासिबल्।
किम् अर्थः कः? किमर्थं कारणं कः? किमर्थं
वाट् इस् द रीजन्?
तदनन्तरं पुत्रः किं वदति?
पुत्रः अहं विद्यालयं न गतवान्।
पुनः वदतु। अहम्
अहं विद्यालये
विद्यालये अपि च अत्र तु विद्यालयं
विद्यालयं न गतवान्।
न गतवान् इत्युक्ते
ऐ डिण्ट् वेण्ट् पास्ट् वर्तमानकाले गतवान् वर्तमानकाले अस्ति।
गतवान् तु वर्तमान् नास्ति भगिनि।
भूतकालार्थ अहं न गच्छामि।
उत्तमम्। ऐ डिडन्ट् गो। उत्तमं तदेव। अहं विद्यालयं न गतवान्। अहं विद्यालयं न गतवान्। गतवान् कीदृशप्रत्यय तत्र?
गतवान् इति तवतु अन्ते
आयात्। तवतु त्वान्त तु नास्ति, किन्तु तवतु। तवतु भूतकालार्थक अस्ति, अपि च पुंलिङ्गम् एकं रूपं, स्त्रीलिङ्गम् अन्यरूपम्, अपि च नपुंसकलिङ्गम् अन्यरूपम्।
नपुंसकलिङ्गम् अस्ति चेत् गतवत्
गतवत् गतवान्। स्त्रीलिङ्ग् अस्ति चेत्
गतवत्
गतवती
गतवती।
यदि पुत्री अस्ति चेत् अहं विद्यालयं न गतवती। उत्तमं, धन्यवादः भगिनि। अस्तु दीप्षिका भगिनि अग्रिमम्।
भवतु पिता,
पिता
बोले,
पिता
बोले क्या होगा? वदत्, अवदत्।
अत्र पिता लट् रूपं किं? वद् धातुतः लट् रूपं वदति, वदति, किं वदति?
पिता वदति भवतु, भवतु, अहं भवान् पाठयामि।
अर्थः तु समीचीनं। कथं वदामः संस्कृतभाषायां, कथं वक्तव्यम्? भवान् तु प्रथमविभक्तिरूपं, भवान्, भवन्तौ, भवन्तः, तदनन्तरं द्वितीयविभक्ति
भवन्तं, भवन्तौ, भवतः,
भवतः। अत्र किम् आयाति?
अहं भवन्तं पाठयामि,
पाठयामि। उत्तमं, पाठयामि इति पदस्य विषये किमपि जानाति वा कोऽपि?
उत्तमपुरुष लोट् लकार शब्दः भगिनि।
उत्तमपुरुष लोट्, लोट् लोट् अस्ति वा? पाठयामि
लोट्
लोट् तु नास्ति। अत्र किम् अभवत्? लट् अस्ति तु पठामि, पाठय न, लट् लट् तु नास्ति, पठिष्यामि तत्तु एकम् अन्यरूपम् अस्ति। अहं वदामि पाठयामि, अत्र पठ धातुतः आयाति पाठयामि। पठ धातुतः णिच् णिच् एकं प्रत्यय अस्ति, णिच् णिच् अस्ति चेत् किमपि कार्यं यदि वयं किमपि अन्यस्य किं हेतु अस्ति इत्युक्ते स्वस्य कारणम् अहं केवलं हेतु अस्ति किन्तु अहं स्वयं तु न करोमि इत्युक्ते पढ़ना पढ़ाना, लिखना लिखवाना, करना कराना, हिंदी भाषायां इति यदि वयं हेतु अस्ति चेत् तदनन्तरं णिच् आयाति, एकं प्रत्यय अस्ति णिच्। णिच् अस्ति चेत् तदनन्तरं लट् रूपम् अस्ति चेत् यकार आयाति तत्र मध्ये, इत्युक्ते चुरादिगणवत् अस्ति, चुरादिगणे सर्वदा यकार आयाति, दशमगण अस्ति किन्तु तत् तु चुरादिगणे सर्वाणि सर्वे धातवः स्वार्थे निच् अस्ति किन्तु अन्य गणस्य धातवः अपि णिच् स्वीकरोति, ते सर्वदा प्रेरणार्थे णिच् अस्ति इत्युक्ते प्रेरणा, अहं केवलं प्रेरणा करोमि, प्रेरणां करोमि, प्रेरणा कस्य कृते? भवान्, भवन्तं पाठयामि इत्युक्ते मम प्रेरणा
हेतु अस्ति भवन्तं पाठयामि इत्युक्ते भवान् पठतु इति. हिन्दीभाषायां कथं वदामः कोऽपि अवगतं वा?
So the father is saying that I'll teach you, you please read. Is that right, Bhagini?
Father is trying to be the prerana. Is trying to be the inspiration to make the student study. You please study. I will do whatever I can, but you have to do the studying, no? So, Samskrita Bhashayam, Pathami ityukte, I do the work of learning. Pathayami ityukte, I do the inspiration for you to do the work of learning. Iti. Avagatamma? पाठयामि कारयामि
लिखयामि
न सर्वदा तु एकम् अष्टाध्यायी मध्ये एकवारं पश्यतु. हा पाठयामि देर्फोर् इन् इङ्ग्लिश् इट् सिम्प्लि चेञ्जेस् द वर्ब् टु टीच् टोटलि डिफ्रेण्ट् वर्ब् लर्निङ्ग् एण्ड् टीचिङ्ग् टोटलि डिफ्रेण्ट् वर्ब्
सोरि भगिनी बस् पाठयामि अष्टाध्यायी में नहीं कुछ रिजल्ट दे रहा है.
नहीं देगा बिकॉज इट इज नॉट अ गण बाय इटसेल्फ इट इज अणिच प्रत्यय णिच आयाति चेत पाठयामि तदनंतरम अन्य पुस्तकम अस्ति धातु रूपाणि एकम अन्य पुस्तकम अस्ति अपि च पाठयामि स्पोकन् संस्कृत मध्ये अस्ति वा तत्र पाठयामि न जानामि किं दत्तं
नो भगिनि इट् नो वेन् ऐ से पाठयामि इट् गिव्स् मी अभ्युपैति विच् हेज़् द सेम् इङ्ग्लिश् मीनिङ्ग् अग्री वित् ऐ डोण्ट् नो वै यु आल्सो ट्रै अट् योर् एण्ड् बट् ऐ एम् नाट् गेटिङ्ग् पाठयामि इण्डिपेण्डेण्ट्लि
पाठयामि न पाठयति पाठयति अस्ति वा हा पाठयति अत्र दत्तं पाठयति एकनिमिषम् चाट् मध्ये प्रयत्न करोमि अहम् अस्तु चाट् मध्ये दत्तं पाठयति सि वर्ब् causal verb ityukte prerṇārthe ṇic sanskrita bhāṣayām katham vadāma prerṇārthe ṇic ṇic ekam pratyaya asti ṇic pratyayasya krute yakāra madhye ayati ya yakāra tu na ya yakāra akāra ayati pāṭhayati अवगतं वा पश्यति वा सर्वे पश्यन्ति वा चाट् मध्ये पश्यतु पाठयति कौसल् पाठयामि तत्र तु न दत्तं किन्तु किमर्थं न दत्तं पाठयामि स्पोकन् संस्कृत मध्ये कोऽपि वदतु प्रथमपुरुष एकवचनरूपमेव दत्तम् सर्वाणि रूपाणि न दत्तानि तत्र प्रथमपुरुष एकवचन अपि च लट् एव दत्तम् अन्यथा बहु बृहत् अस्ति स्पोकन् संस्कृत
अतः तु पाठयामि, पाठयामि इत्युक्ते अहं पाठयामि, ऐ टीच्, भवन्तं पाठयामि. कः भवन्तं पाठयामि? अहं भवन्तं पाठयामि. उत्तमं. हा, अग्रिमं किं करोति? कस्य क्रमः आयाति? अस्तु, शैलजा भगिनी अग्रिमं करोतु.
आं भगिनि. पुत्रः, सत्यं, भवान् पठतु, पाठयति,
पाठयति, पठतु तु न, भवान्, अहं दत्तम्, आवर्णे अहं दत्तं, परिवर्तनं करोतु.
आं भगिनि.
पाठयति, पाठयति इत्युक्ते किम्?
पाठयति इस् दट्स् वाट् यु हेव् सेण्ट् इन् द चाट् लैक् इस् इट् लोट् भगिनि?
पाठयति लट् एव भगिनि.
नो, लट्, पाठयति इस् लट्. या,
लट् अस्ति इत्युक्ते किम्? पुत्रः वदति, पुत्र वदति. कर्तृपदं किं?
सत्यं, भवान्,
भवान्,
भवान् इस् कर्तृपदम्.
भवान् कर्तृपदम् अस्ति चेत् प्रथमपुरुष एकवचन लट् रूपम् अस्ति, पाठयति इति. भवान् पाठयति. कर्मपदं किं तत्र?
सो पाठम् इस् कर्मपदं, विच् इस् इम्प्लाय्ड्.
पाठयति एकं क्रियापदम् अस्ति, भवान् पाठयति, यथा रामः पाठयति. रामः पाठयति इत्युक्ते किम्?
रामः पाठयति इस् राम इस् रीडिङ्ग्.
रामः पाठयति इत्युक्ते किम्?
राम रीड्स्, पाठयति. बट् वै, वाट् इस् द डिफरेन्स् बिट्वीन् पढा रहा है?
रामः पाठयति.
रामः पाठयति इत्युक्ते रामः पढा रहे हैं, ही इस् टीचिङ्ग्. पाठयति, यकार आयाति मध्ये, पश्यतु एकवारम्. पाठयति, यकार अस्ति तत्र, पठति तु न, रामः पठति तु अन्य भिन्न अर्थ अस्ति. अत्र तु रामः पाठयति, भवान् पाठयति. पाठयति इत्युक्ते किम्?
इस् टीचिङ्ग्.
उत्तमं. भवान् पाठयति. कर्मपदं किं तत्र वाक्ये?
अहं, भवान्, भवान् इस् कर्मपदं.
न, भवान् इस् नाट् कर्मपदं भगिनि.
सत्यं, भवान् पाठयति. हा, नो भगिनि, पुत्रः इस् कर्मपदं. पुत्र को पढा रहा है? फादर् इस् टीचिङ्ग् टु सन्, सो पुत्रः इस् कर्मपदम्. एण्ड् कर्तृपदम् इस् भवान्.
किन्तु यदि पुत्र एव वदति, तदनन्तरं पुत्र कथं वक्तव्यं? कथं वदति?
दट्स् द रीज़न्. अहं, भवान् वुड् बी द कर्मपदं.
मां
पाठयति. उत्तमं. मां पाठयति इत्युक्ते मुझको पढाये वा, प्रश्नवाचक तत्र दत्तं. सत्यं, भवान् मां पाठयति. पुत्र पृच्छति, आप मुझे पढा रहे हैं?
आम भगिनी, इट्स वेरी कंफ्यूजिंग.
आई
अंडरस्टैंड नाउ.
नाउ यू अंडरस्टैंड.
आई अंडरस्टैंड भगिनी.
अहम् परिवर्तनं करोतु, कर्मपदं किं
मां कर्मपदं
मम तु न मां पाठयति कं पाठयति मां पाठयति सीता पाठयति सीता कं पाठयति सीता रामं पाठयति
सीता इस् कर्तृपदम् एण्ड् माम् इस् कर्मपदं पाठयति क्रिया
उत्तमं तदेव तदेव उत्तमं धन्यवादः भगिनी
पाठयति अपि निच् प्रत्ययप्रेरणार्थम् अस्ति
वा हा पाठयति एव लट् प्रथम एकवचन तदनन्तरं पाठयामि उत्तमम् उत्तमपुरुष एकवचन
But why the words are not there, Bhagini? How do we know, like, where to search if this kind of words appear?
Pathami, Bhagini. Kinchit eva aham janami, kintu tad aham pathami. Sarvam tu saukaryam nasti na, Bhagini. Kinchit.
Bhagini.
Pustake tu kinchit eva avagatam, kintu. अस्तु उत्तमं धन्यवादः भगिनी अस्तु पिता किं वदति सुधा भगिनी
आं भगिनि पिता वदति आं पाठयामि
इत्युक्ते
यस् ऐ विल् टीच् यु
यस् ऐ एम् टीचिङ्ग्
ऐ एम् टीचिङ्ग्
आं पाठयामि तदनन्तरं
पुत्री वदति तात्
तात
अपि पाठयतु माम् अपि पाठयतु
मामपि पाठयतु पुत्री वदति मामपि पाठयतु इत्युक्ते किं
प्लीज़् टीच् मी आल्सो
मामपि पाठयतु उत्तमं धन्यवादः भगिनि शिवरूपा भगिनि
आं भगिनि पिता अस्तु भवती अपि पाठयामि भवती परिवर्तनं भूत्वा भवतीम् अपि पाठयामि
उत्तमं भवतीमपि पाठयामि इत्युक्ते
कर्मपदं लेता है सो परिवर्तनं तु भवती प्रथमविभक्ति भवतीं द्वितीयविभक्ति एकवचनपदं
भवतीमपि पाठयामि इत्युक्ते किम्
आप्को भी पठाति
न श्रूयते भगिनि
आपको भी पढाती हूँ भगिनि
आपको भी पढाता हूँ पिता वदति न पढाता हूँ उत्तमं कविता भगिनि
आं भगिनि पुत्रः वदतु
वदति
कदा वदति
पुत्र बोलता है
कदा पाठयति कभी पढ़ेंगे
कब पढ़ेंगे
तो
तदनन्तरं पिता
पिता वदति इदानीं अभी आपको पढ़ाओ इदानीं मीन्स अभी और आपको पाठयामि तो भवान का द्वितीय विभक्ति मुझे बताएंगे भवान का द्वितीय विभक्ति क्या आएगा आपको पढ़ाता भवन्तम् पाठयामि इदानीं भवन्तं पाठयामि बट् इफ् ही इस् ओन्ली आन्सरिङ्ग् द सन् देन् भवन्तम् एण्ड् इफ् ही इस् आन्सरिङ्ग् बोथ् हिस् चिल्ड्रन् then it will be plural.
Plural so na dvivachane.
Achha, yeah, sorry, dvivachane. Bhavantam. So bhavantau?
Bhavantau. Uttama. Bhavantau. Kintu atra tu avarne tu keval bhavan dattam. Ekvachana.
All right. So bhavantam. So idanim bhavantam pathayami.
Bhavantam.
Bhavantam pathayami.
Pathayami. Uttamam. Uttamam. Dhanyavada bhagini. Dipshika bhagini.
Putraha vadati. Anuja pada pathayati.
Anuja chukte.
Chota bhai.
Choti behen.
Choti behen.
Srilingam padam. Akaranta srilingam padam.
Usko kab padhao.
हाँ
वो पूछ रहा है उसको कब पढ़ोगे अनुजा
पुत्र हाँ अस्तु हाँ कब पढ़ते वाक्यम क्यों
तो अनुजा का कैसे चेंज करेंगे
अनुजा की दृश्य पदम रमावत
रमावत ना
हाँ तो
उसको तो लताम
हाँ
अनुजाम
हाँ
अनुजाम
हाँ
अनुजाम कदा पाठ्यति
हाँ अनुजाम कदा पार उसको अपने में नहीं
उसकी चिंता ज्यादा
अस्तु पुत्र वदति अनुजाम कदा पाठयति हाँ तदनंतरम हाँ शैलजा भगिनी पिता
आम भगिनी पिता पिता सा सायंकाले पाठयामि Tayami. So Pita is saying is the Katrupadam and he is saying that he will teach her in the evening. So Sa is for her daughter, which is Karma Padam. Ko. Dvitiya Vibhakti Ekvachana Shabdaha Ayaga. So Sa ka Dvitiya Vibhakti is one minute Bhagini. सा द्वितीया विभक्ति ताम सो ताम पिता ताम सायंकाले पाठयामि
इत्युक्ते
आई विल टीच यू इन द इवनिंग दैट्स व्हाट ही इज सेइंग सो तुमको सायंकाले पाठयामि सो द्वितीया विभक्ति फॉर एकवचन शब्दः
पुत्री को
साका
उसको इत्युक्ते
पुत्री को पुत्री को सायंकाले ही इज सेइंग दैट टू हिज डॉटर दैट ही विल टीच हर इन द इवनिंग
हां ही इज टेलिंग द सन एक्चुअली
सा इज यस भगिनी सॉरी या ही इज टेलिंग टू हर हिज सन दैट ही इज गोइंग टू टीच हर डॉट टीच हर इन द इवनिंग या टीच हर डॉटर इन द इवनिंग सा इज हियर दूरे अस्ति चेत् सा
उत्तमम
हां भगिनी
तदनन्तरं कण्टिन्यू वदतु
वदतु कः पाठः कः सो पाठः कः पाठः पाठयामि सो वदतु टेल् मी विच् लेसन् सो इट् इस् पाठः इस् प्रथमविभक्ति पाठको वदतु कः द्वितीयविभक्ति इस् कः one minute, Bhagini. Sorry, I'm taking your time. Kaha. And is it kam, Bhagini?
Kam.
Kam. Yeah. Kam. Patam. Patayami.
Ah,
vadatu kam patam patayami.
Ah. Vadatu kam patam
patayami. Patam is also dvitiya vibhakti.
Ah, aduna pita. Kam prati vadati.
Pita is questioning to his son, like, what lesson do you want me to teach?
Uttama. Kam patham patayami sundaram. Sudha bhagini.
Dhanyavada.
Putra, etam patham patayatu.
Etam patham patayatu. Ityukte?
please teach this lesson.
This lesson. Uttamam. Pita kim vadati?
Pita vadati, sarve patah patayami. Sarvani, sarvam patam patayami.
Sarvani patani.
Sarvani patani patayami.
Paath kidrisha padam.
Paath napumsakalinga padam.
Napumsakalingam va. Paathah kadam.
Paathah na pumlinga padam.
Pumlingam padam asti che.
Sarva
prathama tu ekam padam karotu
pataah
dvitiya vibhakti
pataan
uttamam pataan asti aduna sarve dvitiya vibhakti ekavachana rupam kim
sarve
pumlinga asti chet
sarve
सर्वान् उत्तमं सर्वान् पाठान् पाठयामि पिता वदति
सर्वान् पाठान्
पुत्रं प्रति वदति अहं सर्वान् पाठान् पाठयामि
सारे पाठों को
पढ़ाऊंगा
उत्तम मुश्किल हो
गया फंस गया लड़का फंस गया उत्तम सुंदरम अस्तु धन्यवाद सर्वेभ्य अस्तु अंतिम शांति पाठ दीपशिका भगिनी वदतु
ओम पूर्णमदं पूर्णा Purnamada Purnamadaya Purnamudachyate Om Purnamada Purnamidam Purnat Purnamudachyate Purnasya Purnamadaya Purnamevavashishyate Om Shanti 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 Hari Om Om Guru Bhyo Namaha Hari Om
Om Sarvam Krishna Arpanam Astu धन्यवाद सर्वेभ्य नमो नमः नमस्कारः
नमस्कारः भगिन्यो नमस्कारः
धन्यवाद
भगिनी आपने लास्ट मतलब कुछ शेयर किया था व्हाट्सएप ग्रुप पे कि ये क्लास में लेंगे करके
कल किया ना
मैंने
ट्यूसडे
अच्छा मैंने ट्यूसडे नहीं अटेंड किया ओके ठीक है भगिनी
एक बार पढ़ लेना यू कैन लिसन टू द रिकॉर्डिंग दैट वाज आल्सो इट वाज अ वेरी यूजफुल एक्सरसाइज नो
Yes, again. And today is Kartak Sud 4. So we are progressing towards Poonam.
Poonam, Panchami tomorrow, Panchami. Diwali, Samichina Mabhavat, Sarve.
Haan, Bhagini, this time it is a quieter Diwali without any crackers.
Yes. But in India, plenty of crackers.
Oh, really, Bhagini?
They had something called green crackers. This concept of green crackers, slightly, I suppose, eco-friendly. And less noisy, but nice. But all made in India, that was good. All made in Shivakashi. None from China here.
Wow.
Bhagini, if you want to stop the recording of our class.
Did anyone celebrate today festival Nagal Chauti? Do you know anyone of you aware of it?